అథ తస్య వివాహ కౌతుకం లలితం బిభ్రత ఏవ పార్థివః వసుధామపి హస్తగామినీం అకరోదిందుమతీమివాపరాం.
అథేతి అథ పార్థివః రఘుః లలితం సుభగం వివాహకౌతుకం వివాహమంగళం వివాహహస్తసూత్రం వా బిభ్రత ఏవ. కౌతుకం మంగళే హర్షే హస్తసూత్రే కుతూహలే ఇతి శాశ్వతః. తస్య అజస్య అపరాం ఇందుమతీం ఇవ వసుధామపి హస్తగామినీం అకరోత్. అస్మిన్ సర్గే వైతాళీయం ఛందః.
దురితైరపి కర్తుమాత్మసాత్ ప్రయతంతే నృపసూనవో హియత్ తదుపస్థితమగ్రహీదజః పితురాజ్ఞేతి న భోగతృష్ణయా.
దురితైరితి నృపసూనవః రాజపుత్రాః యద్రాజ్యం దురితైరపి విషప్రయోగాది నిషిద్ధోపాయైః అపి ఆత్మసాత్ స్వాధీనం. తదధీనవచనే ఇతి సాతిప్రత్యయః. కర్తుం ప్రయతంతే హి ప్రవర్తంత ఏవేత్యర్థః. హి శబ్దః అవధారణే హి హేతావవధారణే ఇత్యమరః. ఉపస్థితం స్వతః ప్రాప్తం తద్రాజ్యం అజః. పితుః ఆజ్ఞేతి హేతోః అగ్రహీత్ స్వీచకార. భోగతృష్ణయా తు నాగ్రహీత్.
అనుభూయ వసిష్ఠసంభృతైః సలిలైస్తేన సహాభిషేచనం విశదోచ్ఛ్వసితేన మేదినీ కథయామాస కృతార్థతామివ.
అనుభూయేతి మేదినీ భూమిః మహిషీ చ ధ్వన్యతే వసిష్ఠేన సంభృతైః సలిలైః తేన అజేన సహ అభిషేచనం అనుభూయ విశదోచ్వసితేన స్ఫుటం ఉద్బృంహణేన ఆనంద నిర్మలోచ్వసితేన చేతి ధ్వన్యతే. కృతార్థతాం గుణవత్ భర్తృలాభకృతం సాఫల్యం కథయామాసేవ. నచ ఏతావతా పూర్వేషాం అపకర్షః ప్రశంసాపరత్వాత్. సర్వత్ర జయమన్విచ్ఛేత్ పుత్రాదిచ్ఛేత్ పరాజయం ఇత్యంగీకృతత్వాచ్చ.
స బభూవ దురాసదః పరైః గురుణాథర్వవిదాకృతక్రియః పవనాగ్నిసమాగమోహ్యయం సహితం బ్రహ్మ యదస్త్ర తేజసా.
స ఇతి అథర్వవిద అథర్వవేదాభిజ్ఞేన గురుణా వశిష్ఠేన కృతక్రియః. అథర్వోక్త విధినా కృతాభిషేక సంస్కార ఇత్యర్థః. సః అజః పరైః శత్రుభిః దురాసదః దుర్ధర్షో బభూవ. తథా హి అస్త్రతేజసా క్షత్రతేజసా సహితం యుక్తం యద్ బ్రహ్మతేజోయం పవనాగ్నిసమాగమోహి. తత్కల్ప ఇత్యర్థః. పవనాగ్ని ఇత్యత్ర పూర్వనిపాత శాస్త్రస్య అనిత్యత్వాత్ ద్వంద్వే ఘీ ఇతి నాగ్ని శబ్దస్య పూర్వనిపాతః. తథా చ కాశికాయాం అయమేకస్తు లక్షణహేత్వోరితి నిర్దేశః పూర్వనిపాత వ్యభిచార చిహ్నం ఇతి. క్షాత్రేణేవ అయం దుర్ధర్షః కిమయం పునః వశిష్ఠమంత్ర ప్రభావే సతీత్యర్థః. అత్ర మనుః నాక్షత్రం బ్రహ్మభవతి క్షత్రం నా బ్రహ్మవర్ధతే బ్రహ్మక్షత్రేతు సంయుక్తే ఇహాముత్ర చ వర్ధతే ఇతి.
రఘుమేవ నివృత్తయౌవనం తమమన్యంతనవేశ్వరం ప్రజాః సహితస్య న కేవలాం శ్రియం ప్రతిపేదే సకలాన్ గుణానపి.
రఘుమితి ప్రజాః నవేశ్వరం తమజం నివృత్తయౌవనం ప్రత్యావృత్తయౌవనం రఘుమేవ అమన్యంత. న కించిత్ భేదకం అస్తీత్యర్థః. కుతః హి యస్మాత్ స అజః తస్య రఘోః केवलाम् एकाम् श्रियम् न प्रतिपेदे किन्तु सकलान् गुणान् शौर्यदाक्षिण्यादीनपि प्रतिपेदे अतः तद्गुणयोगात् तद्बुद्धिर्युक्तेत्यर्थः
अधिकम् शुशुभे शुभम् युना द्वितयेन द्वयमेव सङ्गतम् पदमृद्धमजेन पैतृकम् विनयेनास्य नवम् च यौवनम्
अधिकमिति द्वयमेव शुभम् युना शुभवता शुभम् युस्तु शुभान्वितः इत्यमरः अहम् शुभमोर्युस् इति युस्प्रत्ययः द्वितयेन सङ्गतम् युतम् सदधिकम् शुशुभे किम् केन इत्याह पदमिति पैतृकम् पितुः आगतम् ऋतष्ठञ् इति ठञ् प्रत्ययः रुद्धम् समृद्धम् पदम् राज्यम् अजेन अस्य अजस्य नवम् यौवनम् विनयेन इन्द्रियजयेन च विजयो हीन्द्रियजयस्तद्युक्तः शास्त्रमर्हति इति कामन्दकः राज्यस्थोऽपि प्राकृतवन्न दृप्तः अभूत् इत्यर्थः
सदयम् बुभुजे महाभुजः सहसोद्वेगमियम् व्रजेदिति अचिरोपनताम् समेदिनीम् नवपाणिग्रहणाम् वधूमिव
सदयमिति महाभुजः सह अजः अचिरोपनताम् नवोपगताम् मेदिनीम् भुवम् नवम् पाणिग्रहणम् विवाहः यस्यास्ताम् नवोढाम् वधूमिव सहसा बलात्कारेण चेत् सहो बलम् सहामार्गः इत्यमरः इयम् मेदिनी वधूर्वा उद्वेगम् भयम् व्रजेदिति हेतोः सदयम् सकृपम् बुभुजे भुक्तवान् भुजोनवने इत्यात्मने पदम्
अहमेव मतो महीपतेः इति सर्वः प्रकृतिष्वचिन्तयत् उदधेरिव निम्नगाशतेषु अभवन्नास्य विमानना क्वचित्
अहमिति प्रकृतिषु प्रजासु मध्ये सर्वोऽपि जनः अथवा प्रकृतिष्वित्यस्य अहमित्यनेन अन्वयः व्यवधानम् तु सह्यम् सर्वोऽपि जनः प्रकृतिष्वहमेव महीपतेः मतः महीपतिना मन्यमानः मतिबुद्धिपूजार्थेभ्यश्च इति वर्तमाने तः तस्य च वर्तमाने इति षष्ठी इत्यचिन्तयत् अमन्यत उदधेः निम्नगासतेषु इव अस्य नृपस्य कर्तुः कर्तृकर्मणोः कृती इति कर्तरि षष्ठी क्वचिदपि जनविषये विमानना अवगणना तिरस्कारः नाभवत् यतः न कञ्चित् अवमन्यते अतः सर्वोऽपि अहमेवास्य मत इति अमन्यतेत्यर्थः
न खरो न च भूयसाम् मृदुः पवमानः पृथिवीरुहामिव स पुरस्कृतमध्यमक्रमः न मयामास नृपाननुद्धरन्
नेति स नृपः भूयसा बाहुल्येन खरः तीक्ष्णो न भूयसा मृदुः अतिमृदुरपि न किन्तु पुरस्कृतमध्यमक्रमः सन् मध्यमपरिपाटीम् अवलम्ब्य इत्यर्थः पवमानो वायुः पृथिवीरुहांस्तरूनिव नृपान् अनुद्धरन् अनुत्पाटयन्नेव नमयामास अत्र कामन्दकः मृदुश्चेदवमन्येत तीक्ष्णात् उद्विजते जनः तीक्ष्णश्चैव मृदुश्चैव प्रजानाम् स च सम्मतः इति
अथ वीक्ष्य रघुः प्रतिष्ठितम् प्रकृतिष्वात्मजमात्मवत्तया विषयेषु विनाशधर्मसु त्रिदिवस्थेष्वपि निःस्पृहो भवत्
अथेति अथ रघुः आत्मजम् पुत्रम् आत्मवत्तया निर्विकारमनस्कतया इत्यर्थः। उदयादिषु अविकृतिर्मनसः सत्त्वमुच्यते आत्मवान् सत्त्ववानुक्तः इत्युत्पलमालायाम्। प्रकृतिषु अमात्यादिषु प्रतिष्ठितम् रूढमूलम् वीक्ष्य ज्ञात्वा विनाशो धर्मो येषाम् तेषु विनाशधर्मसु अनित्येष्वित्यर्थः। धर्मादनिच् केवलात् इत्यनिच् प्रत्ययः समासान्तः। त्रिदिवस्थेषु स्वर्गस्थेष्वपि विषयेषु शब्दादिषु निःस्पृहः निर्गतेच्छः अभवत्। कुलधर्मश्चायमेव इत्याह।
गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः पदवीं तरुवल्कवाससाम् प्रयता संयमिनाम् प्रपेदिरे।
गुणवदिति दिलीपवंशजाः परिणामे वार्धके गुणवत्सुतेषु रोपितश्रियः स्थापितलक्ष्मीकाः प्रयताश्च सन्तः। तरुवल्कान्येव वासांसि येषाम् तेषाम् संयमिनाम् यतीनाम् पदवीम् प्रपेदिरे। यस्मात् तस्मात् अस्यापि इदम् उचितम् इत्यर्थः।
तमरण्यसमाश्रयोन्मुखम् शिरसा वेष्टनशोभिना सुतः पितरम् प्रणिपत्य पादयोः अपरित्यागमया च तात्मनः।
तमिति अरण्यसमाश्रयोन्मुखम् वनवासोद्युक्तम् पितरम् तम् रघुम् सुतः अजः वेष्टनशोभिना उष्णीषमनोहरेण शिरसा पादयोः प्रणिपत्य आत्मनः अपरित्यागम् अयाचत। माम् परित्यज्य न गन्तव्यम् इति प्रार्थितवान् इत्यर्थः।
रघुरश्रुमुखस्य तस्य तत् कृतवानीप्सितमात्मजप्रियः न तु सर्प इव त्वचम् पुनः प्रतिपेदे व्यपवर्जिताम् श्रियम्।
रघुरिति आत्मजप्रियः पुत्रवत्सलो रघुः अश्रूणि मुखे यस्य तस्य अश्रुमुखस्य अजस्य तदपरित्यागरूपम् ईप्सितम् अभिलषितम् कृतवान्। किन्तु सर्पः त्वचमिव व्यपवर्जिताम् त्यक्ताम् श्रियम् पुनः न प्रतिपेदे न प्राप।
स किलाश्रममन्त्यमाश्रितः निवसन्नावसथे पुराद्बहिः समुपास्यत पुत्रभोग्यया स्नुषयेवा विकृतेन्द्रियश्रिया।
स इति स रघुः किल अन्त्यमाश्रमम् प्रव्रज्याम् आश्रितः पुरान्नगरात् बहिः आवसथे स्थाने निवसन् अविकृतेन्द्रियः जितेन्द्रियः सन्नित्यर्थः। अत एव स्नुषयेव वध्वेव पुत्रभोग्यया न स्वभोग्यया श्रिया समुपास्यत शुश्रूषितः। जितेन्द्रियस्य तस्य स्नुषयेव श्रियापि पुष्पफलोदकाहरणादिशुश्रूषाव्यतिरेकेण न किञ्चित् अपेक्षितम् आसीदित्यर्थः। अत्र यद्यपि ब्राह्मणाः प्रव्रजन्ति इति श्रुतेः आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद्गृहात् इति मनुस्मरणात् मुखजानामयम् धर्मः यद्विष्णोर्लिङ्गधारणम् बाहुजातो रुजातानाम् अयम् धर्मो न विद्यते इति निषेधाच्च ब्राह्मणस्यैव प्रव्रज्या न क्षत्रियादेः इत्याहुः। तथापि यदहरेव विरजेत्तदहरेव प्रव्रजेत् इत्यादि श्रुतेः त्रैवर्णिकसाधारण्यात् त्रयाणाम् वर्णानाम् वेदमधीत्य चत्वार आश्रमाः इति सूत्रकारवचनात् ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेत् गृहात् इति स्मरणात् मुखजानामयम् धर्मो वैष्णवम् लिङ्गधारणम् बाहुजातोरुजातानाम् त्रिदण्डम् न विधीयते इति निषेधस्य त्रिदण्डविषयत्वदर्शनाच्च कुत्रचित् ब्राह्मणपदस्य उपलक्षणम् आचक्षाणाः केचित् त्रैवर्णिकाधिकारम् प्रतिपेदिरे तथा सति सकिलाश्रमम् अन्त्यमाश्रितः इत्यत्रापि कविनाप्ययमेव पक्षः विवक्षित इति प्रतीमः अन्यथा वानप्रस्थाश्रमतया व्याख्याते विदधे विधिमस्य नैष्ठिकम् यतिभिः सार्थमनग्निमग्निचित् इति वक्ष्यमाणेन अनग्निसंस्कारेण विरोधः स्यात् अग्निसंस्काररहितस्य वानप्रस्थस्यैव अभावात् इत्यलम् प्रासङ्गिकेन
प्रशमस्थितपूर्वपार्थिवम् कुलमभ्युद्यत नूतनेश्वरम् नभसा निभृतेन्दुना तुलाम् उदितार्केण समारुरोह तत्
प्रशमेति प्रशमे स्थितः पूर्वपार्थिवः रघुः यस्य तत् अभ्युद्यतः अभ्युदितो नूतनेश्वरो अजः यस्य तत् प्रसिद्धम् कुलम् निभृतेन्दुना अस्तमयासन्नचन्द्रेण उदितार्केण प्रकटितसूर्येण च नभसा तुलाम् सादृश्यम् समारुरोह प्राप न च नभसा तुलाम् इत्यत्र तुल्यार्थैः इत्यादिना प्रतिषेधः तृतीयायाः तस्य सदृशवाचि तुलाशब्दविषयत्वात् कृष्णस्य तुला नास्ति इति प्रयोगात् अस्य च सादृश्यवाचित्वात्